कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकं निहितं गुहायां विभ्राजते तज्जतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयशुद्धसत्त्वा आह ते ब्रह्मलोके तु परा अन्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रं विपापं परमे एष्मभूतं यत्पुण्डरीकं पुरमध्यसंज्ञस्थम् तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनश्च यः परः स महेश्वरः।